तृतीय स्कंध
अर्थ त्रयोदशोध्याय बारह अवतार की कथा। श्री शुकर उवाच निशम्य वाचम वद तो मुने पुण्यतमाम नृप भूय पप्रच्छ कौरव्यो वासुदेव कथा द्रुत। विद्रो उवाच स्वयं स्वयंभुव सम्राट प्रिय पुत्र स्वयंभुव प्रतिलभ्य प्रिय पत्नी किंचकार तो मुने चरितं तस्य राजर्षेर आदिराजस्य सत्तम ब्रूहि मे श्रद्धानाय विश्वक्सेनाश्रयो ह्यसौ श्रुतस्य पुंसां सुचिराश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः यत्तद्गुणानुश्रवणं मुकुन्द पादारविन्दं हृदये सुयेषाम्। श्रीशुक उवाच इति ब्रुवाणं विदुरं विनीतं सहस्रशिष्णश्चरणोपधानम् प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट। मैत्रे उवाच यदा स्वभार्यया साकं जातः स्वायंभुव मनः प्रञ्जलिः प्रणतश्चेदं वेदगर्भम् भासत त्वमेकः सर्वभूतानां जन्मकृद्वृत्तिदः पिता अथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् तद्विधेहि नमस्तुभ्यं कर्मस्विद्यात्मशक्तिषु यत्कृत्विहजसो विश्वगमुत्र च भवेद् गतिः प्रीतस्तुभ्यमहं तात स्वस्तिस्तद्वां श्रुतेश्वर जन्निर्व्यलीकेन हृदा साधिमेत्यात्मनार्पितम् एतावत्यात्मजैर्वीर कार्याह्यप्चितिर्गुरौ शक्त्या प्रमत्ते गृह्येत सार्दनं गतमत्सरैः स्वत्वम् अस्यामपत्यानि सदृशान्यात्मनो गुणैः उत्पाद्य शासधर्मेण गामजज्ञः पुरुषं जज परम शुश्रूषणम् मह्यं स्यात् प्रजा रक्षया नृप भगवांस्ते प्रजा भर्तु हृषीकेशो न तुष्यति। येषाम् न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः तेषाम् श्रमो ह्य पार्थाय जदात्मा न धृतः स्वयम्। मनुरुवाच आदेशेऽहम् भगवतो वर्तेयामिव सुदन स्थानम् तुहान् जानीहि प्रजाना मम च प्रभो जदोकः सर्वसत्त्वान मही मग्ना महाम्भसि अस्या उद्धरणे यत्नो देवदेव्या विधीयताम्। मैत्रे उवाच परमेष्ठितपा मध्ये तथा सन्नामवेक्षगाम् कथमेनाम् समुन्यस्य इति दध्यो धियाचिरम् सृजतो मे क्षितिर्वार्भिः प्लाव्यमाना रसाम् गता अथात्र किमनुष्ठेयम् अस्माभिः सर्गयोजितैः यस्याहम् हृदयादासम् स ईशो विदधातु मे इत्यभिध्यायतो नाशा बिभ्रात् सहसा नघ वराहतो को निर्ग्रादङ्गुष्ठ परिमाणकः तस्याभिपश्यतः खस्त क्षणेन किल भारत गजमात्रः प्रववृद्धे तदद्भुतम् अभुन्महत् मरीचि प्रमुखैर्विप्रे कुमारैर्मनुना सह दृष्ट्वा तत्सौकरम् रूपम् तर्कयामास चित्रधा किमेतत् सौकर अव्याजम् सत्त्वम् दिव्यमवस्थितम् अहो बताश्चर्यमिदम् नाशाया मे विनिःसृतम् दृष्टोऽङ्गुष्ठशिरो मात्र क्षणात् गण्डशिला समहाम् अपि स्वीद् भगवानेश यज्ञो मे खेदेन मनः इति मीमांसतस्तस्य ब्रह्मणः सहसोऽनुभि भगवान् यज्ञपुरुषो जगज्जागेन्द्रसन्निभः ब्रह्माणम् हर्षयामास हरिस्तांश द्विजोत्तमान् स्वगर्जितेन ककुभ प्रतिस्वनयता विभुः निशम्यते घर्घरितम् स्वखेद चैष्णुमायामयशुकरस्य जनस्तपः सत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयो गृणन् स्म तेषाम् सताम् वेदवितान् मूर्तिर्ब्रह्मावधार्यात्मगुणानुवादम् विनद्य भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेश उत्क्षिप्त बालः खचरः कठोरः सटा विधुन्वन खर रोम सस्त्वग खुरा हता भ्र शित द्रंष्ट इच्छा ज्योतिर्भासे भगवान महिध्रः घ्राणेन पृथ्व्या पदवीं विजिघ्रन् क्रोड़ा प्रदेश स्वयं अध्वरांग कराल द्रंष्टोप्य कराल दृग्भ्याम उद्विच्य विप्रान गृणतो विषत्कम् सवज्रकूटांग निपात वेग विषीर्ण कुक्षी स्तनयनुदन्वान् उत्सृष्ट दीर्घवर्म भुज रिवार्तश्चुक्रोश जज्ञेश्वर पाहि मेति खुरही क्षुर प्रैर्दरयंस्तदाप उत्पार पारम त्रिपरु रसायाम ददर्श गाम तत्व सुसुप सुराग्रे याम जीवधानीम स्वयं अभ्यधाता स्वद्रंष्टयोद्धृत्य महीम निमग्नाम स उत्थित संरुचे रसायः तत्रापि दैत्यम गदया पतंतम सुनाभ संदीपित तीव्रमन्युः जघान रुंधान मसह्य विक्रमं सलीलये मृगराढ़िवांबसे तद्रक्त पंकांकित गंड तुंडो जथा गजेन्द्रो जगतिं विभिन्दन् तमाल नीलम सित दंत कोट्या शमामुच्छिपंतं गजलीलयांग प्रज्ञाय बंधा जलयोनुवाकैर् विरिंच मुख्या उपत स्थुरीशम ऋषय ऊचुः जितम जितम ते जित यज्ञ भावना त्रयीं तनुम स्वाम परिधुन्वते नमः जद्रोम गर्ते सुनिलील्युरध्वरास्तस्मै नमः कारण शोकरायते रूपं तवैतत् ननु दुष्कृतात्मनां दुर्दर्शनं देवजदध्वरात्मकं छन्दांसि जस्य त्वचि बर्हि रोम स्वाज्यं दृशित्वं घृषिचातुर्हर्त्रम् श्रुक्तुण्डयासीत् श्रुवैष नाशयोरिडोदरे चमसः कर्णरन्ध्रे प्राशित्रमाश्ये ग्रसने ग्रहास्ते जच्चर्वणं ते भगवन् अग्निहोत्रम् दीक्षानुजन्मोपसद शिरोधरम् त्वम् प्रायणीयोदयनीय द्रष्टः जिह्वा प्रवर्ग्य स्तव शीर्षकम् क्रतोः सभ्यावसत्यम् चितयो सवोहिते सोमस्तुरेतः सवनान्यवस्थितिः संस्था विभेदास्तव देव धातवः सत्राणि सर्वाणि शरीर संधि त्वं सर्वजज्ञ कृतुरिष्टि बंधनः नमो नमस्ते खिल मंत्र देवता द्रव्याय सर्व कृतवे क्रियात्मने वैराग्य भक्त्यात्मजयानुभावित ज्ञानाय विद्या गुरवे नमो नमः दृष्टाग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूषभूधरा यथा वनान्य सरतो दता धृता मतं गजेन्द्रस्य सपत्र पद्मिनी त्रयीमयं रूपमिदं च सौकरं भूमण्डले नाथ दता धृतेन ते चकास्ति श्रृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव बिभ्रमः संस्थापयेनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता विधेम चास्यै नमसा सह त्वया यस्यां सतेजोमिवारणावधा कः श्रद्दधितान्यतमस्तव प्रभो रसां गताया भुव उद्विवर्हणम् न विस्मयोऽसौ त्वयि विश्वविस्मये यो मायेदं ससृजेति विस्मयम् विध्वन्वता वेद्मयं निजं वपुः जनस्तपःसत्यनिवासिनो वयम् सटा शिखोद्धूत शिवाम्बुबिन्दुभिः विमृज्यमाना वृषमीश पावितः स वै बत भ्रष्टमतिस्तवै सते यः कर्मणां पारमपार कर्मणः यज्जोग माया गुणयोग मोहितं विश्वं समस्तं भगवन् विधेहिषाम् मैत्रेय उवाच इत्युपस्थीयमानस्तैर्मुनिभिर्ब्रह्मवादिभिः सलिले स्वखुराक्रान्त उपाधत्तावितावनीम् स इत्थम् भगवानुर्विम् विश्वक्सेनः प्रजापतिः रसायालीलयो नीतामप्सुन्यसृजयो हरिः य एवमेतम् हरिमेधसो हरेः कथाम् सुभद्रम् कथनीयमायिनः शृण्वीत भक्त्या श्रवये ओषतिम् जनार्दनस्यासि हृदि प्रसीदति तस्मिन् प्रसन्ने सकलाशिषाम् प्रभो किम् दुर्लभम् ताभिरलम् लवात्मभिः अनन्यदृष्ट्या भजताम् गुहाशयः स्वयम् विधत्ते स्वगतिम् परः पराम् को नाम लोके पुरुषार्थसारवित् पुरा कथानाम् भगवत्कथासुधाम् आपीय कर्णाञ्जलिभिर्भवापहाम् अहो विरज्येत विना नरेतरम् इति श्रीमद्भागवते महापुराणे परमहंस्याम् संहितायाम् तृतीयस्कन्धे वाराह प्रादुर्भावानुवर्णने त्रयोदशोऽध्यायः।